सर्वे पुनः स्वागत गतवर्गे वयं किञ्चित् लङ्लकारस्य विषये वयं पठितवन्तः अद्य लङ्लकारस्य विषये वयम् एकां कथां पठामः तस्य अनन्तरं तौतुप्रत्ययः अपि लङ्लकारस्य विषये किञ्चित् अभ्यासं कुर्मः अस्तु अस्तु अहं स्क्रीन् शेर् करोमि दृश्यते वा
आं भगिनि
अस्तु आं राधा भगिनी भवती प्रथमतया पठतु
शिशुपालवधः उग्रसेनः मथुरायाः महाराजः तस्य पुत्रः कंसः पुत्री देवकी देवक्याः पतिः वसुदेवः दुष्टः कंसः जनकम् उग्रसेनं देवकीं वसुदेवं च कारागृहे स्थापयित्वा स्वयमेव महाराजः अभवत् अनन्तरम्
अत्र स्थगयतु भगिनि अत्र किम् अभवत् इति अत्र वदतु भवती भवती किं पठितवती तत्र कथा किं वदति इति वदतु संस्कृतेनैव वदतु
आं भगिनि मथुरायाः महाराजा उग्रसेनः तस्य पुत्रस्य नाम कंसः पुत्री देवकी पुत्री देवक्याः पतिः वसुदेवः कंसः दुष्टः अस्ति तत्कारणात् सः तस्य जनकम् उग्रसेनः देवकी एवं वसुदेवः कारागृहे स्थापयित्वा सः एव महाराजा अभवत्
समीचीनम् अस्तु गोपाल् महोदय भवान् इदानीम् अनन्तरम् इत्यस्य पठतु
अनन्तरं सः एकैकशः भगिन्याः देवक्याः नवजातानां शिशूनां हननम् अकरोत् देवक्याः सप्तमः पुत्रः बलरामः अष्टमः कृष्णः च मथुरायां जन्म प्राप्तवन्तौ कंसात् भीतः देवकीवसुदेवौ बलरामं कृष्णं च गोकुले नन्दगोपस्य गृहे गुप्तरूपेण स्थापितवन्तौ
अत्र स्थगयतु अत्र किं वदन्ति इति भवान् वदतु किञ्चित्
अनन्तरं सः एकैकशः भगिन्याः देवक्याः नवजातानां शिशूनां हननम् अकरोत् इत्युक्ते कंसः नव शिशुः नवशिशवः किल्ड् मारितवान् He killed 9 children.
संस्कृतेनैव वदतु महोदय
देवक्याः सप्तमः पुत्रः बलरामः अष्टमः कृष्णः च मथुरायां जन्म प्राप्तवन्तौ देवक्याः सप्तमः अष्टमः पुत्रौ बलरामः कृष्णौ अस्ति अस्ति स्तः कंसात् भीतः बीङ्ग् स्केर्ड् आफ् कंस देवकी वसुदेवौ बलरामं कृष्णं च गोकुले नन्दगोपस्य गृहे गुप्तरूपेण स्थापितवन्तौ ऐ डोण्ट् नो हौ टु ट्रान्स्लेट् भगिनी न सिम्पल् संस्कृत ऐ नो द मीनिङ्ग्
कंसात् भीतः देवकी वसुदेवौ बलरामं कृष्णं च गोकुले नन्दगोपस्य गृहे गुप्तरूपेण स्थापितवन्तौ अत्र किमस्ति कंसात् भीतः कृष्णस्य अपि बलरामस्य माता पिता च सन्ति देवकी वसुदेवः च ते कंसात् भीतः सन्ति तदर्थं ते कृष्णं च बलरामं च तयोः मित्रः अस्ति नन्दगोपः तस्य कृते ते प्रेषितवन्तौ अस्तु अस्तु राधा भगिनी भवती पठतु नन्दगोपस्य
नन्दगोपस्य पत्नी यशोदा आसीत् तौ बलरामं कृष्णं च बहुप्रीत्या पालितवन्तौ दुष्टः कंसः कृष्णं बलरामं च मारयितुम् अनेकान् राक्षसान् प्रेषितवान् परन्तु तौ बालकौ सुलभतया सर्वेषां राक्षसानां च हननं कृतवन्तौ अन्ते तौ मथुरां गत्वा कंसस्य हननं च कृत्वा मातामहं जनकं जननीं च कारागृहात् मोचितवन्तौ उग्रसेनः पुनः महाराजः अभवत् नन्दगोपस्य पत्नी यशोदा सा बलरामं कृष्णं प्रीत्या पालितवती दुष्टः कंसः कृष्ण बलरामं मारयितुम् अनेकान् राक्षसान् प्रेषितवान् किन्तु बालकौ सर्वेषां राक्षसान् हननं कृतवन्तौ अन्ते तौ मथुरां गत्वा कंसस्य हननं कृतवन्तः तत् अनन्तरं मातामहं जनकं जननीं कारागृहात् विमुक्ति कृतवन्तः एवमेव उग्रसेन पुनः महाराजाः अभवत्
समीचीनम् अस्तु गोपाल् महोदय भवान् पठतु
I cannot read now, Bhagini. Just give me 20 minutes, yeah?
अस्तु प्रिया भगिनी पठितुं शक्नोति वा अत्र कृष्णस्य पितृ
कृष्णस्य पितृष्वसा श्रुत्श्रवा श्रुतश्रवा तस्याः पिताः दमदोषः तयोः शिशुपालः दन्तवक्रः इति द्वौ पुत्रौ शिशुपालः दन्तवक्रः च बाल्यात् एव बहु तुष्टौ आस्ताम्। शिशुपालः विदर्भदेशस्य राजकुमारी रुक्मिणीं परिणेतुम् इच्छति स्म, परन्तु रुक्मिण्याः प्रीतिः कृष्णे एव आसीत्। यदा कृष्णः रुक्मिणीं परिणीतवान् शिशुपालः कुपितः भूत्वा कृष्णेन सह युद्धं कृत्वा पराजयमेव प्राप्तवान्। तस्य क्रोधः अधिकः अभवत्।
अत्र किं जातम् इति किञ्चित् वदतु भगिनि।
कृष्णः पितृश्वसा श्रुतश्रवा पितृश्वसा अर्थं न जानामि भगिनि।
आम् पितुः फादर् सिस्टर्।
ओ श्रवा ओके। तस्याः पिताः तम दोषः ओके। फादर् सिस्टर् एण्ड् देन् तस्याः स्कूल् भगिनि देन् तस्याः
श्रुतश्रवा इति नाम अस्ति कृष्णस्य श्रुतश्रवा अस्ति। श्रुतश्रवायाः पतिः तमकोशः।
ओ ओ ओ पतिः ऐ रेड् इट् अस् पिता ओके मै हेड् सारी पतिः अस् थिङ्किङ्ग् दे बोथ् विल् हेव् द सेम् फादर्। तस्याः पतिः दमदोषः ओके। तयोः शिशुपालः दन्तवक्रः इति द्वौ पुत्रौ ओके। सो दे हेड् टु सन्स् भगिनि शिशुपालः दन्तवक्रः एण्ड् शिशुपालः इति शिशुपालः नाम किं भगिनि पुत्रौ नाम शिशुपालः दन्तवक्रौ
दन्तवक्रः अपि शिशुपालः इति नाम सन्ति
नाम शिशुपालः दन्तवक्रः च बाल्यात् एक बहु दुष्टौ आस्ताम्। एवं न सम्यक् बालः अस्ति भगिनि
किं भगिनि
बहु दुष्ट दे वर् नाट् गुड् किड्स् भगिनि बहु दुष्टौ
आम्
अस्तु। शिशुपालः विदर्भदेशस्य राजकुमारीं रुक्मिणीं परिणेतुम् इच्छति स्म। परिणेतुं मीन्स् टु interested to marry Rukmini Bhagini.
Shishupalaka
विदर्भदेशस्य मीन्स् विदर्भ मीन्स् नेक्स्ट् भगिनी और् और् इस् दट् द नेम् आफ् द
Vidarbha is name of the place, Bhagini.
Oh, okay. So, Vidarbha Desha Hasti. Deshasya Namaha, okay. Vidarbha Deshasya Kumarim Parinetum Ichati. Parantu Rukmanyaha Pritihi Krishne Eva Asti. Rukminihi Krishne Ichati. कृष्णम् इच्छति यदा कृष्णः रुक्मिणीं परिणीतवान् शुः कुपितः भूत्वा कृष्णेन सह युद्धं कृत्वा पराजयमेव प्राप्तवान् शुः कुपितः ऐ एम् नाट् शोर् अबौट् द सेकेण्ड् सेण्टेन्स् वयर् भगिनि शिशुपालः कुपितः भूत्वा कृष्णेन सह युद्धं कृत्वा पराजय
अत्र शिशुपालः कुपितः भवति भूत्वा इति भवति इति चिन्तयतु शिशुपालः कुपितः भवति कृष्णेन सह युद्धं करोमि इति सः चिन्तितवान् कृष्णेन सह सः युद्धं कृत्वा पराजयम् एव प्राप्तवान् नाम डिफीट् तत्र कृष्णः एव तत्र अस्ति तत्र सः युद्धं कृत्वा पराजयम् एव प्राप्तवान् सः कृष्णेन सह सः युद्धं कृतवान् किं प्राप्तवान् पराजयमेव सः प्राप्तवान्
कुपितः अर्थं किं भगिनि
कोपः
ओ ओके 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 नौ ऐ अण्डर्स्टुड् ओके
तद् सः रुक्मिणीं तत्र परिणेतुम् इष्टवान् परन्तु कृष्णः तां प्राप्तवान् इति सः कुपितः भवति
कुपितः ओके अण्डर्स्टुड् तस्याः क्रोधः अधिकः अभवत् ओके तस्याः तस्याः इति शिशुपालः क्रोधः अधिकः भवति
इदानीं राधा भगिनी
हा भगिनि सारी ऐ हेड् इट् आन् म्यूट् एण्ड् ऐ वाज़् रीडिङ्ग्
नो प्राब्लम्
कृष्णस्य अपरा पितृश्वसा कुन्तीदेवी तस्याः पाण्डुमहाराजस्य च पुत्राः पञ्चपाण्डवाः सर्वे धर्मिष्ठाः उत्तमगुणयुक्ताः पाण्डवेषु ज्येष्ठयुधिष्ठिरः इन्द्रप्रस्थस्य महाराजः एकदा युधिष्ठिरः राजसूययागं कृतवान् यागार्थं विभिन्नराज्येभ्यः महाराजाः आगतवन्तः तदा कौरवपाण्डवानां पितामहः भीष्मः राजसभायाम् अग्रपूजां प्राप्तुं श्रीकृष्णः एव श्रेष्ठः इति निश्चितवान् युधिष्ठिरः कृष्णस्य पूजायाः प्रारम्भं कृतवान् शिशुपालः कोपेन बहुवारं कृष्णस्य निन्दनं कृत्वा कृष्णबलरामयोः पाण्डवानां च विरुद्धं युद्धं प्रारब्धवान्। अन्ते कृष्णः सुदर्शनचक्रेण शिशुपालस्य दन्तवक्रस्य च हननं कृत्वा शान्तिं च स्थापितवान्। राजसूययागः विघ्नेन विना सम्पूर्णः अभवत्। सर्वे जनाः सन्तुष्टाः अभवत्। कृष्णस्य एक पितृष्वा शिशुपालस्य अम्बा, अन्य पितृषा कुन्तीदेवी। कुन्तीदेव्याः पञ्चपाण्डवाः पुत्राः। पञ्चपाण्डवानां उत्तमगुणयुक्ताः धर्मनिष्ठाः एव। पाण्डवेषु ज्येष्ठ पुत्रः युधिष्ठिरः इन्द्रप्रस्थस्य महाराजः। एकदा युधिष्ठिरः राजसूययागं कृतवान्। तत्र विभिन्नराज्यमहाराजा आगतवन्तः। कौरवः पाण्डवौ पितामहः भीष्मः राजसभायाम् अग्रपूजां श्रीकृष्ण एव श्रेष्ठ इति निश्चितवान् तदा युधिष्ठिरः कृष्णस्य पूजया कृतवान्। तत्कारणात् शिशुपालः कोपं कृतवान्, एवं कृष्णस्य बहु निन्दनं कृतवान्। तत्कारणात् कृष्ण बलरामयोः पाण्डवानां च शिशुपाला कौरवां विरुद्धं युद्धं प्रारब्धम् अभवत्। युद्धे कृष्णः तस्य सुदर्शनचक्रेण शिशुपालस्य तस्य भ्राता दन्तवक्रस्य च हननं कृतवान्, एवमेव शान्ति स्थापितवान्। तत्कारणात् राजसूययागं विघ्नं विना सम्पूर्णम् अभवत्। सर्वे जनाः सन्तुष्टः अभवत्।
समीचीनं भगिनि,
धन्यवादः।
अत्र प्रश्नाः सन्ति वा? अस्तु
प्रिया भगिनी, डिड् यू अण्डर्स्टाण्ड् द स्टोरी भगिनी?
Sorry, Bhagini, I'm only half listening.
Oh, okay, okay.
No problem, Bhagini.
I'll have to listen to the recording again.
Listen to the recording, Bhagini, later. No problem.
Sorry, Bhagini.
No problem, Bhagini. Ashtu. Ashtu. Aham. कानिचन प्रश्नानि अहं पृच्छामि एतत् कथायाः विषये एव। अस्तु, जानन्ति चेत् वदन्तु। अस्तु, अत्र कंसः जनकम् उग्रसेनं देवकीं कंसः जनकम् उग्रसेनं देवकीं वसुदेवं च कुत्र स्थापितवान्
कारागृहे स्थापितवान्
समीचीनम् कृष्णः बलरामः च कुत्र जन्म प्राप्तवन्तः
मथुरानगरे जन्मं प्राप्तवन्तौ मथुरायां जन्म प्राप्तवन्तौ
देवकी वसुदेवः च बलरामं कृष्णं च कुत्र स्थापितवन्तः
गोकुले नन्दगोपस्य गृहे गुप्तरूपेण स्थापितवन्तौ
अनन्तरं कंसः कृष्णं बलरामं च मारयितुं किं कृतवान् सः
पुनरेकवारं वदतु भगिनि
कंसः कृष्णं बलरामं च मारयितुं किं कृतवान्
तस्य सुदर्शनचक्रं प्रयुजितवान् प्रयुक्तवान्
कंसः इष्टवान् कंसः कृष्णम् अपि बलरामं च मारयितुम् इष्टवान् किल इष्टवान् कंसः कृष्णं बलरामं च मारयितुम् इष्टवान् तदर्थं कंसः किं कृतवान्
राक्षसान् प्रेषितवान्
अनेकान् राक्षसान् प्रेषितवान् अस्तु समीचीनं भगिनि तदा तौ बालकौ सर्वेषां राक्षसानां किं कृतवान्
तौ बालकौ सर्वेषां राक्षसानां हननं कृतवन्तौ
समीचीनम् अस्तु तौ कंसस्य हरणं कृतवन्तः किल तौ कंसस्य हननं कृत्वा कं च कारागृहे कारागृहात् मुञ्चन्ति
मातामहः जनकः जननी
मातामहं तत्र द्वितीयविभक्तिः भवति मातामहं जनकं जननीं च कारागृहे मुञ्चति समीचीनम् अस्तु अत्र
भगिनी एकः प्रश्नः अस्ति किं कारणात् द्वितीयविभक्तिप्रयोजनं करणीयं तत्र भगिनि
अत्र तौ नाम कौ कृष्णः बलरामः च अत्र तौ मथुराम् अत्र अस्ति किल तौ मथुरां गत्वा कंसस्य हननं च कृत्वा अस्तु तौ कंसस्य हननं कृत्वा मातामहम् अस्तु अत्र अस्तु एवं चिन्तयतु सः मातामहं अत्र क्रियापदं मोचितवान् अस्तु कारागृहात् मोचितवान् अस्तु सः मातामहं कारागृहात् मोचितवान् अत्र सः मातामहः मोचितवान् इति अस्ति चेत् कं मोचितवान् इति कर्मपदमस्ति कं मोचितवान् कारागृहात् कं मोचितवान् तत्र कम् इति अस्ति चेत् द्वितीयविभक्तिः भवति किल कः मोचितवान् नाम कृष्णः कं कः मोचितवान् अत्र अस्ति कर्तृपदं कं मोचितवान् इति कर्मपदमस्ति तदर्थं
सर्वे अपि मातामहः जनकः जननीं सर्वे अपि कर्मपदमस्ति
आम् तौ मातामहं जनकं जननीं च कारागृहात् मोचितवन्तौ अत्र तौ कृष्णः बलरामः च मातामहं जनकं जननीं च कारागृहात् मोचितवन्तौ कौ मोचितवन्तौ कृष्णः बलरामः कम् इति प्रश्नः अस्ति चेत् मातामहं जनकं जननीं च
अवगतं भगिनि धन्यवादः
चिन्ता नास्ति अस्तु अन्ये प्रश्नाः सन्ति वा
नास्ति
भगिनि इदानीं वयम् एकां कथां पठितवन्तौ किल तत्र अत्र लङ्लकारस्य उपयोगः किञ्चित् किञ्चित् अस्ति तत्र पश्यन्तु तत्र अभवत् इति वयं कथां पठामः चेत् भूतकाले अस्ति चेत् तत्र अभवत् इति भवति अभवत् अगच्छत् तत्र तत्र एकः अस्ति तत्र तस्य क्रोधः अधिकः अभवत् अनन्तरं प्राप्तवान् प्राप्तवान् इति प्रत्ययः किमस्ति
तव तु प्रत्यय
तव तु प्रत्ययः तत्र भूतकालः अस्ति चेत् तत्र तव तु प्रत्ययः अपि अस्ति लङ्लकारः अपि अस्ति अत्र अस्तु इदानीम् एकां कथां पठामः तत्र पूर्णतया सम्भाषणमिति चिन्तयामि तत्र पूर्णतया लङ्लकारस्य विषये वयं वाक्यानि वयं पश्यामः अस्तु अस्तु दृश्यते वा अस्तु अत्र सम्भाषणमस्ति गोपाल् महोदय पठितुं शक्नोति वा
10 minutes bagini
astu 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 radha bagini atra patatu
priya bagini adhyapakah can priya bagini bhi chhatrah
priya bagini patitum shaknoti va
I think so, Bhagini. I'll do as much as I can, Bhagini.
Na kartam shaknoti chet chinta nasti, Bhagini. Astu.
I'll let you know, Bhagini. I'll do as much as I can.
No problem, Bhagini. Astu. Patantu.
Adhyapakah. Eshah prasiddha mahapurushah uttamah bhashana karta cha aasit. एषः कः
छात्र अहं वदामि सः बाल गङ्गाधर तिलकः
न तिलकः न एषः सम्पूर्णभारतम् अटितवान्
सः शाङ्गराचार्यः खलु
किञ्चित् शृणोतु एषः विदेशमपि अगच्छत्
विदेशम् आगच्छत् प्रायः नेताजी
सः अपि न संस्कृतमपि अपठत्
तर्हि महर्षिः अरविन्दः वा
न एषः कन्याकुमार्यां ध्यानम् अकरोत्
आम् अहं ज्ञातवान् एषः स्वामी विवेकानन्दः खलु
आम् विवेकानन्दः एव यदा विवेकानन्दः परिव्राजकः आसीत् तदा सः सर्वत्र आगच्छत् कदाचित् सः वनम् अगच्छत् तदा केचन वानराः तम् अपश्यन् यद्यपि सः धीरः तदापि वानरान् दृष्ट्वा सः किञ्चित् भीतः अभवत् अतः ततः शीघ्रम् अधावत् वानराः अपि पृष्ठतः अगच्छन् तदा विवेकानन्दः हासध्वनिम् अशृणोत् तत्र एकः सन्यासी अतिष्ठत् सः विवेकानन्दम् अवदत् हे युवसन्यासिन् मा धाव तेषां सम्मुखीकरणम् एव उत्तमम् एतत् श्रुत्वा विवेकानन्दः तत्र एव अतिष्ठत् तदा वानराः अपि अतिष्ठन् धैर्येण सः समीपम् अगच्छत् तं दृष्ट्वा वानराः अधावन् हे बालाः भवन्तः अपि जीवने कष्टात् पलायनं मा कुर्वन्तु भीताः मा भवन्तु कष्टानां सम्मुखीकरणं भवतु
समीचीनम् अस्तु इदानीं किञ्चित् किम् अस्ति इति पश्यामः अस्तु एकः प्रसिद्धः महापुरुषः उत्तमः पार्श्वकर्ता च आसीत् अत्र विशेषणविशेषभावः अस्ति कुत्र अस्ति
विशेषणं प्रसिद्धः महापुरुषः उत्तमः विशेष्यं भाष्यकर्ता
अहं वदामि सः बालगङ्गाधरतिलकः इति छात्रः वदति अध्यापकः वदति न तिलकः न सः सम्पूर्णभारतम् अटितवान् अटितवान् नाम
ट्रावेल्ड् इस् इट्
पूर्णभारतं सः दृष्टवान् गतवान्
पर्यटनं कृतवान् अपि वक्तुं शक्यते वा
आम् अस्तु किञ्चित् शृणोतु न सः शङ्कराचार्यः खलु इति छात्रः वदति किञ्चित् शृणोतु सः एषः विदेशम् अपि अगच्छत् विदेशं नाम
फारिन् कण्ट्री
आम् विदेशम् अगच्छत् प्रायः नेताजी सः अपि न संस्कृतमपि अपठत् तर्हि महर्षिः अरविन्दः वा इति छात्रः पृच्छति अध्यापकः न एषः कन्याकुमार्यां ध्यानम् अकरोत् छात्रः वदति आम् आम् अहं ज्ञातवान् सः स्वामी विवेकानन्दः खलु अध्यापकः आम् विवेकानन्दः एव भगिनी भवती वदति वा अत्र
किं किं वक्तुम् इच्छति भगिनी
तत्र किं वदन्ति इति किञ्चित् वदतु
आं विवेकानन्दः एव परिव्राजकः इत्युक्ते किं भगिनि
किं भगिनि
परिव्राजकः इत्युक्ते अर्थम् अहं न जानामि भगिनि
तत्र नाम
परिव्राजकः इत्युक्ते वेण्डरिङ्ग् मोङ्क् वा
तत्र सः सर्वत्र गत् आं किञ्चित् सः सर्वत्र गत्वा सः सर्वान् सः वदति एवं भवतु भवान् इति रिलिजियस् पर्सन् इति वाण्डरिङ्ग् रिलिजियस् पर्सन्
ओके सो विवेकानन्दः एकदा वनं गतवान् तदा केचन वानराः विवेकानन्दं पश्यन्तः विवेकानन्दः धीरः तदापि वानरान् दृष्ट्वा सः किञ्चित् भीतः अतः ततः शीघ्रम् आदावत् वानराः अपि पृष्ठतः आगच्छन् तदा विवेकानन्द हास्यध्वनिम् अशृणोत् हास्यध्वनिं हा भीतः एवं धावितवान् तदा विवेकानन्दः एक हास्यध्वनि श्रुतवान् एकं सन्यासी दृष्टवान् स सन्यासी तदा अतिष्ठत् सन्यासी विवेकानन्दम् एतत् उक्तवान् हे युवसन्यासीन् मा दाव तेषां सम्मुखीकरणम् एव उत्तमम् सम्मुखीकरणम् इत्युक्ते किं भगिनि सम्मुखीकरणम् अहं न जानामि भगिनि
सम्मुखीकरणं नाम सम्मुखी नाम तत्र
तत्र अर्थम् अस्ति वा टु फेस् ब्रेव्ली सो एकदा विवेकानन्दः वनं गतवान् वने किञ्चित् वानराः दृष्ट्वा स भीतः अभवत् एवं शीघ्रम् आदावत् तद् दृष्ट्वा एकं सन्यासी हसितवान् विवेकानन्दः हास्यध्वनि श्रुतवान् सन्यासी विवेकानन्दम् इति उक्तवान् हे युवसन्यासी मा दाव धीरतया तिष्ठतु इति एतत् श्रुत्वा विवेकानन्दः तत्र एव तिष्ठवान् तदा वानरः अपि तत्र हि तिष्ठन्तः धैर्येण सह समीपम् आगतवन्तः तं दृष्ट्वा वानराः अधावन् तो अध्यापकः एतं कथा बालकेन उक्त्वा एतत् उपदेशं दत्तवान् बालकः भवन्तः अपि जीवने कष्टात् समये पलायनं मत् करोतु भीतः मा भवतु भवन्तु कष्टान् सर्वे अपि सम्मुखीकरणं पश्यतु इति इस् इट् करेक्ट् भगिनि
समीचीनं भगिनि अस्तु अत्र लङ्लकारस्य विषये किञ्चित् पश्यामः अत्र दृष्टवती वा अत्र कथं तत्र वाक्यानि सन्ति लङ्लकारस्य उपयोगं कृत्वा
सर्वे अपि अकरोत् अगच्छत् अपश्यत् किञ्चित् ज्ञातवान् एतादृश अस्ति
गोपाल् महोदय भवान् पठितुं शक्नोति वा अत्र लङ्लकारः इति
लङ्लकारः एतानि वाक्यानि परिशीलयत स्मरण भूतकालः एषः विदेशमपि गतवान् सः संस्कृतम् अपि पठितवान् एषः कन्याकुमार्यां ध्यानं कृतवान् केचन वानराः तं दृष्टवन्तः सः शीघ्रं धावितवान् सः विवेकानन्दम् उक्तवान् विवेकानन्दः तत्र एव स्थितवान्
समीचीनम् इदानीं भूतकाले वदतु
एषः विदेशमपि गतवान् एषः विदेशमपि अगच्छत् सः संस्कृतमपि पठितवान् सः संस्कृतमपि अपठत् एषः कन्याकुमार्यां ध्यानं कृतवान् एषः कन्याकुमार्यां ध्यानम् अकरोत् केचन वानराः तं दृष्टवन्तः केचन वानराः तम् अपश्यन् सः शीघ्रं धावितवान् सः शीघ्रम् अधावत् सः विवेकानन्दम् उक्तवान् सः विवेकानन्दम् अवदत् विवेकानन्दः तत्र एव स्थितवान् विवेकानन्दः तत्र एव अतिष्ठत्
समीचीनम् अस्तु गतवान् इति अगच्छत् पठितवान् अपठत् कृतवान् अकरोत् दृष्टवान् अपश्यत् धावितवान् अथावत् उक्तवान् अवदत् स्थितवान् अतिष्ठत् इदानीम् अस्तु किञ्चित् अभ्यासं कुर्वः वयं नवरूपाणि लङ्लकारस्य वयं दृष्टवन्तः तस्य मनसि अस्ति वा
प्रयत्नं करोमि भगिनि एकं प्रश्नमस्ति तत्र द्वयवाक्यमपि अर्थम् एकम् एव भवति किलो
आम् आम्
जस्ट् टु वेज़् आफ़् सेयिङ्ग् द सेम् थिङ्ग्
एकः द्वयमपि भूतकाले एव समानः अर्थः एकं दौत्यप्रत्ययः अस्ति एकं लङ्लकारः अस्ति तावदेव इदानीम् अस्तु प्रयत्नं करोतु अगच्छत् इति स्वीकृत्वा
अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छ अगच्छतः अगच्छत अगच्छ अगच्छाम अगच्छाव अगच्छाम करेक्ट् भगिनि
अस्तु गोपाल् महोदय भवान् प्रयत्नं करोतु अपठत्
वाट् ऐ हेव् टु से भगिनि
लङ्लकाररूपाणि नवरूपाणि
लङ्लकारः नवरूपाणि अपठत् अपठत् अपठताम् अपठन् दट् करेक्ट् भगिनि हलो
वदतु महोदय
श्रूयते वा
आं श्रूयते महोदय
अपठत् अपठताम् अपठन् अप अपठ अपठवः अपठ अप नट् अपठवः इस् अपठत् अपठतम् अपठत् अपठम् अपठाव अपठाम हलो
महोदय
श्रूयते वा
किञ्चित् श्रूयते किञ्चित् न श्रूयते
किञ्चित् श्रूयते किञ्चित् न श्रूयते अपठत् अपठताम् अपठन् अपठः अपठतम् अपठथ अपठम् अपठाव अपठाम
समीचीनं महोदय अस्तु इदानीम् अपश्यत् इति राधा भगिनी
अपश्यत् अपश्यताम् अपश्यन् अपश्य अपश्यतम् अपश्यत अपश्यम् अपश्यावः अपश्यामः करेक्ट् भगिनि
आं भगिनि समीचीनम् अस्तु
दट् उत्तमपुरुषः इट् इस् अपठवः अपठव अपठम और् अपठाव अपठाम
किं महोदय
उत्तमपुरुषः अपठव अपठम और् अपठाव अपठाम
उत्तमपुरुषः किं भवति इति भवान् पृच्छति वा
अपठत
उत्तमपुरुषे इदानीम् अपश्यत् इति भगिनी उक्तवती किल तत्र अपश्यम्
अपठत्
अस्तु अपठताम् अपठाव अपठाम
अपठतम् अपठाव अपठाम ओके
अपठतम् न
अपठतम् आर्डिनरी तावन्
अपठम् न
क्षम्यता अपठम्
अपठम् अपठाव अपठाम
अस्तु इदानीं गोपाल् महोदय अधावत्
अधावत् अधावत् अधावताम् अधावन् अधावः अधावतम् अधावत अधावत् अधावम् अधाव अधा अधाव अधाम
समीचीनम् इदानीम् अवदत् राधा भगिनी
अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम अवदाव अवदाम
समीचीनम् अस्तु अतिष्ठत् गोपाल् महोदय
अतिष्ठत् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठ अतिष्ठत् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम
समीचीनम् अस्तु अनन्तरम् एकनिमिषः अस्तु अपिबत् राधा भगिनी
अपिबत् अपिबताम् अपिबन् अपिबः अपिबतम् अपिबथ अपिबम् अपिबाव अपिबाम
अस्तु अनयत् कोपल् महोदय
अनयत् अनयताम् अनयन् अनयः अनयतम् अनयत अनयम् अनयाव अनियाम
समीचीनम् अपिबत् राधा भगिनी
भगिनी दट्स् ओवर् ऐ थिङ्क् अपिबत्
अस्तु अस्तु एतत् अभ्यासं कुर्मः अत्र एतानि वाक्यानि भूतकाले वदत
अहं करोमि वा
प्रथमं भवती एक्स्चेञ्ज् चेत्
प्रथममेव विवेकानन्दः सर्वत्र गच्छति विवेकानन्दः सर्वत्र गतवान् विवेकानन्दः सर्वत्र अगच्छत्
अस्तु
लङ्लकाररूपम् इस् ओन्लि अगच्छत् रैट् भगिनि
What do you mean only agachat?
The Bhutakala Rupam Tavatu Pratya will be Gatavan.
With Gatavan and with agachat.
Oh, both of them will be called Langlakara form?
No, Atra Bhutakale Vadantunas it's given right Bhagini. So we can use Langlakara and then we can also use Tavatu Pratya just for our practice.
Astu.
Astu.
Bhaktaha tam pashyanti. Bhaktaha tam drishtavantaha. Bhaktaha tam अपश्यन्
विवेकानन्दः भक्तान् वदति विवेकानन्दः भक्तान् उक्तवान् विवेकानन्दः भक्तान् अवदत्
भक्ताः प्रश्नान् पृच्छन्ति भक्ताः प्रश्नान् पृच्छन्ति पृष्टवन्तः भक्ताः प्रश्नान् अपृच्छन्
महिलाः अल्पाहारं पचन्ति महिलाः अल्पाहारं अपचन् महिलाः अल्पाहारं पचितवन्तः नाट् टु श्योर् भगिनि
अपचत् इति भवति
अपचन् ऐ आल्रेडि सेड् अपचन् बिकास् इट्स् महिलाः द अदर् वन्
पठितवन्तः
पठितवत्यः
महिलाः किल
स्त्रीलिङ्गं पठितवत्यः गोपाल महोदय योर टर्न्
विवेकानन्दः अल्पाहारं खादति विवेकानन्दः अल्पाहारं खादितवान् विवेकानन्दः अल्पाहारम् अखादत्
विवेकानन्दः जलम् एव पिबति विवेकानन्दः जलम् एव पीतवान् विवेकानन्दः जलम् एव अपिबत्
विवेकानन्दः साधुविचारान् वदति विवेकानन्दः साधुविचारान् अवदत् वदति पास्ट् इस् वाट्
उक्तवान्
विवेकानन्दः साधुविचारान् उक्तवान्
भक्ताः साधुविचारान् पठन्ति भक्ताः साधुविचारान् अपठन् भक्ताः साधुविचारान् पठितवन्तः करेक्ट् भगिनि
आम् अस्तु गोपाल् महोदय
You have to change the...
आम् एकनिमिष अस्तु एतत् कुर्मः
रिक्तस्थानानि पूरयत आचार्यः विषयम् अवदत् आचार्याः विषयम् उक्तवान् अहम् आचार्यम्
महोदय ऐ थिङ्क् इट् इस् सिङ्ग्युलर् एण्ड् प्लूरल् महोदय
आचार्याः ओके आचार्याः अवदत् वदताम् अवदन् अहम् आचार्यम् अपश्यत् वयम् आचार्यम् अपश्याम नो नो अयम् अहम् आचार्यम् अपश्यम्
अपश्यम् करेक्ट् भगिनि अपश्यम् ऋषिका डेश् ऋषिकाः पात्रम् अनयन् ऋषिका पात्रम् अनयत् अहं वनम् अगच्छम् वयं वनम् अगच्छामः करेक्ट् भगिनी अगच्छामः गोपाल महोदय
शिष्यः साधवानम् शिष्यः साधवानम्
सावधानम्
शिष्यः सावधानम् अपठत् शिष्याः सावधानम् अपठन् चिक्रोडः वने अधावत् चिक्रोडाः वने अधावन्
हिरणः नद्याः जलम् अपिबत् हिरणाः नद्याः जलम् अपिबन् अहं प्रश्नम् अपृच्छम् वयं प्रश्नम् अपृच्छाम
सः शिष्यः अभवत् ते शिष्याः अभवन् आचार्यः फलम् अखादन् अखादत् आचार्याः फलानि अखादन्
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
नास्ति भगिनि
अस्तु अनन्तरम् एतादृशरूपाणि एकवारं पठन्तु
एतानि रूपाणि सावधानं परिशीलयत् प्रथमपुरुषः एकवचनम् अपठत् प्रथमपुरुषः द्विवचनम् अपठताम् प्रथमपुरुषः बहुवचनम् अपठन् मध्यमपुरुषः एकवचनम् अपठः मध्यमपुरुषः द्विवचनम् अपठतम् मध्यमपुरुषः बहुवचनम् अपठत् उत्तमपुरुषः एकवचनम् अपठम् उत्तमपुरुषः द्विवचनम् अपठाव उत्तमपुरुषः बहुवचनम् अपठाम शुड ऐ रीड् दि अदर् वन् आल्सो भगिनी
गोपाल् महोदय भवान् पठतु
अलिखत् अलिखताम् अलिखन् अलिखः अलिखतम् अलिखत अलिखम् अलिखाव अलिखाम
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
न भगिनि
अस्तु अत्र स्थगयामः वयं अग्रिमसप्ताहे वयं धातुगण विषये वयं पठामः अस्तु
धातुगणाः
आम्
ओके अस्तु भगिनि
अस्तु
अग्रे कक्षायां समयं भिन्नमस्ति वा
कथं ऐ केन् डु ऐदर् टैम् भगिनि विच् ओन् ऐ विल् आस्क् इन् द ग्रूप् विच् ओन् सूट्स् एव्रि वन् देन् वी केन् डिसैड् विच् ओन् विल् गो फर् अस्तु
अस्तु भगिनि डेलैट् सेविङ्ग्स् टैम् भवति किलो तत्कारणात् अहं
धन्यवादः भगिनि
पुनर्मिलामः धन्यवादः
पुनर्मिलामः भगिनि
धन्यवादः
नमस्कारः